गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर है गुरु साक्षात परब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र सम्बन्धस्य अवच्छेदकता नाम सम्बन्धे अवच्छेदकता शक्तिः अस्ति इति एतत् सर्वं पेज् कुत्र अस्ति 46-47 इति मन्ये हा अतः तत्र हा 45 अस्तु पञ्चचत्वारिंशत् पुटे अस्ति तत्र केवलम् अहं स्वीकृतवान् यतोहि तत्र वयं चर्चां कर्तुं शक्नुमः इति अस्तु तत्र घटे अनेके आदेयता अनेकाः आदेयताः सन्ति इति वार्ता अस्तु तत्र एकं सर्वे वदन्तु तर्हि तत्र अस्तु तत्र योगेन्द्रमहोदय तत्र आदेयता काः आदेयताः सन्ति इति किञ्चित् वदति वा तत्र
इत्युक्ते कति प्रकारेण आदेयता सन्ति इति वक्तुम् इच्छामि
एकाम् आदेयतां स्वीकृत्य किञ्चित् विवृणतु तत्र घटः भूतले अस्ति अथवा घटः कपाले अस्ति तादृशं स्वीकृत्य किञ्चित् विवरणं करोतु
प्रथमति ज्ञानम्
अस्तु
घटः
महोदय सारल्यार्थं भूतलम् इति स्वीकरोतु एतत् स्वीकुर्मः प्रथमतया
अस्तु घटः इति विषयः अस्ति
घटः भूतले अस्ति
घटः भूतले अस्ति
इति ज्ञानं महोदय इति चिन्तयामः तत्र आदेयः कः अधिकरणं किम् घटः
आदेयः घटः
आदेयः घटः आदेयता तर्हि कुत्र अस्ति
भूतले अस्ति
न आदेयः घटः इति उक्तवान् खलु तर्हि आदेयः घटः समीचीनम् ओके आदेयः घटः
तत्र आदेयता अस्ति भूतले अधिकरणता अस्ति
भूतलम् अधिकरणं समीचीनम् अधिकरणं अस्तु अतः तत्र घटः आदेयः इति स्वीकृत्य घटे
आदेयता अस्ति
अस्ति भूतले अधिकरणता
अस्ति
समीचीनं अपि तत्र वयं जानीमः तत्र घटात् आरभ्य तत्र घटनिष्ठ आदेयतानिरूपित अधिकरणताश्रयम् आश्रयः भूतलम् इति तादृशं कर्तुं शक्नुमः खलु अस्तु समीचीनम् अस्तु अग्रे
औच्छेदः कथं स्थापयितुं शक्नुमः
इति एक इदानीम् एका आदेयता अस्ति अनेकाः आदेयताः सन्ति इति किन्तु प्रथमतया तत्र काः ताः इति पश्यामः तदनन्तरं तत्र भिन्नाः न वा इति चिन्तनं भवति तत्र केवलं पुनस्मरणार्थम् अस्तु शोभाभगिनी अग्रिमद्वितीय तत्र
आं महोदय तत्र कपालः वा अथवा
कपालः स्वीकरोतु
अस्तु तत्र कपालः इति घटस्य तत्र घटः कपाले अस्ति अतः अधिकरणता कपाले भवति आधेयता घटे अस्ति
समीचीनम् किमर्थं तत्र घटः कपाले अस्ति इति वदामः कपालः घटे अस्ति इति न वदामः
यतोहि तत्र कपालः एव तत्र समवायसम्बन्धः घटकपालयोः
समीचीनं समीचीनं योगेन्द्रमहोदय तत्र तत्र केवलम् एतस्य प्रश्नस्य उत्तरं ददातु महोदय तत्र घटः भूतले केन सम्बन्धेन अस्ति
प्रायः संयोगसम्बन्धेन
संयोगसम्बन्धेन समीचीनं समीचीनम् अस्तु धन्यवादः अस्तु ततः कपालो समवायसम्बन्धेन अस्ति समीचीनम्
अतः तत्र सम्बन्धः कीदृश तत्र अवच्छेदकः
अग्रे भवतु किन्तु तत्र घटः कपाले अस्ति इति तत्र तत्र किमस्ति घटः अपि यदि तत्र पटः अस्ति अपि पटः नाम वस्त्रं खलु
सत्यं
वस्त्रं पटः नाम वस्त्रम् अपि वस्त्रं केन निर्मितम् तत्र तन्तुभिः
क्षमतां तन्तुभिः निर्मितं
पटस्य निर्माणं भवति वस्त्रस्य निर्माणं भवति अतः तन्तवः सन्ति तत्र तन्तवः वस्त्रे सन्ति वा अथवा वस्त्रं तन्तुषु सन्ति वा
वस्त्रं तन्तुषु सन्ति तत्र तन्तूनां विना अथवा तन्तुभिः विना वस्त्रं भवितुं न अर्हति
एतत् महत्त्वपूर्णबिन्दुः अस्ति खलु नाम तत्र पटः तन्तुषु वर्तते इति वदामः तत्र अधिकरणता तन्तुषु अस्ति इति वदामः पटः आदेयः इति वदामः यतोहि तन्तुभिः पटस्य वस्त्रस्य निर्माणं भवति किन्तु यदि तत्र तन्तवः ये सन्ति तान् यदि वयं पृथक् पृथक् कुर्मः वस्त्रमस्ति इति चिन्तयामः वस्त्रं तन्तुभिः निर्मितम् अस्ति किन्तु यदि तत्र तन्तूनां तत्र पृथक् करणं भवति तन्तः सन्ति खलु
आं तन्तवः इदानीमपि
वस्त्रं नास्ति
तन्तवः
अतः तत्र वस्त्रस्य आधारः तन्तवः तत्र अतः तत्र पटः इति तत्र पटः अस्ति पटः आदेयः अस्ति तन्तवः अधिकरणमस्ति तत्र अवयव अवयवीभावः इति वदामः खलु तत्र अवयवी तत्र अवयवाः के अपि अवयवी कः
तत्र यस्मिन् अवयवाः सन्ति तत् अवयवी इति भवति अतः वस्त्रं तत्र अवयवी
भवति किन्तु तत्र न्यायशास्त्रे विपरीततया भवति समीचीनं अतः अत्र अवयवी कः
विपरीत दिशेन भवति चेत् तत्र
व्याकरणे तत्र अवयवी इनि प्रत्ययनं खलु तत्र अवयवाः यस्मिन् इति
यस्मिन् तदेव अवयवी इति व्याकरणे भवति
किन्तु
भवान् उक्तवान् अत्र तु विपरीतरीत्या
अस्ति खलु
अतः तत्र यतोहि तर्हि तत्र पटः अवयवी नास्ति
अवयवी एव खलु
अवयवेव अस्तु तस्य तत्र पटे अवयवाः तन्तवः
एतादृशप्रयोगः भवति इति कृत्वा अवयवी इति तत्र वदामः पटः अवयवी इति किन्तु अवयवी तत्र इनि प्रत्ययस्य उपयोगे तत्र अस्मिन् इति अधिकरणं सूचितमस्ति किन्तु तद् न्यायशास्त्रविरुद्धम् अस्ति किन्तु अवयवी इति नामकरणं पटः अपि तन्तवः
अवयवाः
किमर्थं तन्तवः इति लिखितवान् अस्तु तन्तवः अवयवाः सन्ति अस्तु तथैव तत्र घटः इति
घटः इति अवयवी भवति कपालाः अवयवाः
अवयवी एतत् एकमेव कपालः अस्ति इति कृत्वा अवयवः इति एकमेव कपालः एकः एव कपालः इदानीं तत्र एतत् केवलं हास्यार्थं प्रश्नं पृच्छामि तत्र उत्तमं प्रश्न उत्तमः प्रश्नः अस्ति इति कृत्वा, किन्तु उत्तरं वयं सर्वे जानीमः, किन्तु तत्र शैली समीचीना अस्ति इति कृत्वा तत्र अस्मिन् प्रसङ्गे अत्र अत्र अवयवः अवयविनी अस्ति वा अथवा अवयवी अवयवे अस्ति वा इति प्रश्नः.
अवयवी अवयवे
अवयवे अस्ति वा अथवा अवयवः अवयविनी अस्ति वा इति.
तत्र अवयवी अवयवे अस्ति इति मन्ये.
हा इति एव इति एव. यतोहि तत्र अवयविन् इति खलु तत्र प्रातिपदिकं तदस्य सप्तमी अवयविनी
अवयवी इति.
हा तत्र अतः अवयवी अवयवे अस्ति वा अथवा अवयव अवयवः अवयविनी अस्ति वा इति प्रश्नः भवति. हा किन्तु यदि अग्रे तादृशप्रश्नः भवता श्रुतः चेत् उत्तरं जानन्ति.
आम्
अस्तु. अतः तत्र सर्वदा तत्र अवयवी इति एव तत्र अवयविनी आधेयता अस्ति. अवयवे अथवा अवयवेषु तत्र अधिकरणम्
अधिकरणता
अस्ति इति अस्ति तत्र. अस्तु. अतः तत्र द्वितीयविध तत्र आदेयता का इति वयं दृष्टवन्तः. अस्तु, इदानीं तृतीयविध आदेयता तत्र प्रेमलता भगिनी किञ्चित् विवृणोति वा तर्हि तत्र वयम् अस्ति.
अत्र आदेयता इति स्वयं
तत्र आरम्भे वदतु, यथा वयम् उक्तवन्तः घटः भूतले अस्ति, घटः कपाले अस्ति, अत्र किम् अस्ति घटः?
घटः घटे
स्वस्मिन् समीचीनं. घटः घटे अस्ति, स्वस्मिन् अस्ति, समीचीनम्. अस्तु, तत्र सम्बन्धः कः?
तादात्म्यसम्बन्धः.
तादात्म्यसम्बन्धः, समीचीनम्. तादात्म्यसम्बन्धः अस्तु. तत्र
अधिकरणता स्वयमेव.
हा अत्र अधिकरणता अपि अत्र घटे एव अस्ति. आदेयता अपि
घटे
घटे एव अस्ति. आदेयता अपि घटे एव अस्ति, समीचीनम्. हा इति अस्तु, समीचीनम्. अस्तु, तत्र दीप्तिभगिनी किञ्चित् वक्तुम् इच्छति वा अद्य? अनेके जनाः न
सन्ति. प्रयत्नं करोमि.
हा प्रयत्नं
करोमि.
तर्हि इदानीं तत्र महाकालः इति स्वीकरोति वा अथवा ज्ञानम् इति स्वीकरोति वा?
महाकालः.
अस्तु,
घटः
महाकाले
महाकाले
अस्ति
अस्ति. अधिकरणं सम्बन्धः कालिकसम्बन्धः अस्ति.
हा समीचीनं भगिनि. हा उत्तमं. हा सम्बन्धः कालिकसम्बन्धः. अधिकरणं किमस्ति?
महाकालः महाकाले अधिकरणम् अस्ति.
महाकाले अधिकरणता अस्ति.
अधिकरणता अस्ति.
हा महाकालः स्वयं अधिकरणम्
अधिकरणं
तस्य महाकाले अधिकरणता अस्ति. हा घटः स्वयम् आदेयः आदेयः अतः घटे आदेयता अस्ति. समीचीनं भगिनि. अतः तर्हि तत्र अन्तिममपि प्रयत्नं करोतु तर्हि. घटः
घटः ज्ञानं
ज्ञाने
अधि
ज्ञाने ज्ञाने अस्ति
अस्ति. घटः ज्ञाने अस्ति
ज्ञाने अस्ति.
सम्बन्धः विषयीसम्बन्धः अस्ति.
विषयितासम्बन्धः
विषयितासम्बन्धः
समीचीनं. तत्र घटः समीचीनं भगिनि. घटः तत्र ज्ञानं ज्ञानम् अपि सम्बन्धः तत्र विषयितासम्बन्धः विषयितासम्बन्धः. तत्र अधिकरणं किम्?
अधिकरणं ज्ञानम् अस्ति.
हा आधेयः
आधेयः घटः अस्ति.
घटः घटे आधेयता अस्ति. तत्र ज्ञानं कीदृशम् इत्युक्ते तत्र ज्ञानम् अयं घटः इति ज्ञानम्. अयं घटः इति वयं तत्र घटं पश्यामः, ओ अयं घटः इति अस्माकं मनसि ज्ञानम् उद्भवति. यदि ज्ञानम् उद्भवति तस्मिन्नेव समये घटः विषयः भवति, नो चेत् घटः पदार्थः. ज्ञानस्य समये एव तत्र सन्दर्भे एव तत्र विषयः भवति, नाम कोऽपि तत्र द्रष्टा भवेत्, तत्र ज्ञानी भवेत्, तत्र घटस्य ज्ञानं यदि कस्मिन् अस्ति चेत् तस्मिन् समये एव तत्र घटः विषयः भवति, घटः विषयिता सम्बन्धेन ज्ञाने भवति. अयं घटः इति तस्मिन् ज्ञानं भवति, तदा तत्र विषयिता सम्बन्धः भवति. किन्तु तत्र घटः तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति, तत्र ज्ञानस्य अपेक्षा अस्ति वा? यदि वयं घटं पश्यामः तदा एव घटः स्वस्मिन् भवति वा? द्रष्टा भवेत् अथवा न भवेत्, घटः सर्वदा स्वस्मिन् तिष्ठति इति वा, अथवा यदि कोऽपि घटं पश्यति तदा एव घटः स्वस्मिन् तिष्ठति वा?
मम एव चिन्तयतु, तदा द्रष्टा स्वीकुर्य.
अत्र तु द्रष्टा, तत्र द्रष्टा अस्ति चेदेव तत्र विषयः भवति. अत्र द्रष्टा आवश्यकं वा, तस्य आवश्यकता अस्ति वा?
अच्छा, तदात्म्यसम्बन्धः द्रष्टा. ओके,
तत्र द्रष्टा अस्ति चेत् एव तत्र घटः घटे भवति वा, अथवा घटः कपाले भवति वा, किम्? यदि अहं पश्यामि तदा एव तत्र घटः कपाले भवति वा, अथवा यदि अहं न पश्यामि चेदपि तत्र घटः कपाले भवति वा, किम्?
घटः कपाले भवति, अहं पश्यामि सर्वदा.
अत्र ज्ञानस्य विषयः तत्र द्रष्टा भवेत् इति अपेक्षा नास्ति, अत्रापि द्रष्टा भवति इति अपेक्षा नास्ति, किन्तु अत्र द्रष्टा भवेत्, नो चेत् एषः सम्बन्धः न भवति. यावत्पर्यन्तं द्रष्टा अस्ति तावत्पर्यन्तं तत्र सम्बन्धः वर्तते, यतोहि ज्ञानं कुत्र अस्ति, तत्र द्रष्टा यः अस्ति तस्मिन् मनसि एव अस्ति, अतः तत्र द्रष्टा नास्ति चेत् तत्र ज्ञानं न उद्भवति इति कृते. अतः तत्र भेदः वर्तते. अत्र आधेयता यः अस्ति, एषा आधेयता, अन्ये तत्र अन्याः आधेयताः याः सन्ति ताभ्यः भिन्ना अस्ति, यतोहि तत्र यदि द्रष्टा अस्ति तदा एव भवति, नो चेत् न भवति इति. अतः तत्र अस्माकं कार्यं किम् आसीत्, आधेयताः सन्ति, अनेकाः आधेयताः सन्ति, तासां तत्र भेदसाधनं, तत्र अवच्छेदकम् इति, तत्र भेदसाधनम् अवच्छेदकेन भवति. तत्र अवच्छेदकः कः इति, अत्र अस्माकं तत्र तत्र सिद्धान्तः अस्माकं पुरतः यः सिद्धान्तः अस्ति, नाम तत्र सम्बन्धः अवच्छेदकः भवितुम् अर्हति. सम्बन्धस्य नाम येन सम्बन्धेन आधेयता वर्तते, तत्र तं स्वीकृत्य वयं भेदं साधितुं शक्नुमः इति. अतः तत्र अवच्छेदकः इति, तत्र अवच्छेदकः इति पूर्वमपि आगतं, तत्र एतत् पेज् 46 मध्ये अस्ति, यत् वयं गतवर्गे कृतवन्तः, पठितवन्तः तदेव. किन्तु तत्र घटत्वं पटत्वयोः उपयोगः दर्शितः इति अस्ति, तत्र पूर्वभागे घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितातः अन्या इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः इति, तत्र अवच्छेदकम् इति तत्र अवच्छेदकता अस्ति घटत्वे इति तस्य किञ्चित् पुनस्मरणमपि पुनः कुर्मः अतः एतत् चिन्तयामः तत्र भूतलमस्ति भूतलमस्ति भूतले तत्र घटः अस्ति घटः अस्ति अपि वस्त्रं वस्त्रं तत्र वस्त्रं कथं तत्र चित्रं कुर्मः वस्त्रस्य अस्तु तत्र केवलं वस्त्रमिति हा अहं तत्र चित्रमेव स्वीकरोमि सौकर्यार्थम् अस्तु तत्र एतत् पटः अस्ति एतत् घटः एषः घटः अस्ति घटः भूतले अस्ति पटः अपि भूतले अस्ति अत्र घटः संयोगसम्बन्धेन भूतले अस्ति पटः अपि संयोगसम्बन्धेन भूतले अस्ति भूतले भूतलम् अधिकरणमस्ति भूतले अधिकरणता अस्ति अत्रापि अधिकरणता अस्ति अतः अधिकरणता द्वयमस्ति इति अङ्गीकुर्वन्ति वा सर्वे भूतले अधिकरणता द्वयमस्ति इति समीचीनं वा अतः तत्र अत्रापि तत्र घटः आदेयः इति कृत्वा तत्र अधिकरणता अस्ति भूतले अपि एषः अपि आदेयः इति कृत्वा कृत्वा पुनः तत्र अधिकरणता अस्ति अतः अधिकरणता द्वयम् अस्ति तत्र भूतले तत्र अधिकरणता एषा अधिकरणता भिन्ना वा तत्र अधिकरणता द्वयम् अस्ति वा अधिकरणता एकमेव अस्ति वा इति प्रश्ने सति वयं किम् उक्तवन्तः एषा अधिकरणता या अस्ति तस्याः अवच्छेदकः अवच्छेदकं घटत्वम् इति उक्तवन्तः अपि अस्याः अधिकरणतायाः अवच्छेदकं पटत्वम् इति उक्तवन्तः अतः तत्र घटत्वं पटत्वम् इति स्वीकृत्य तत्र वयम् अवच्छेदक अवच्छेदकेन वयं भेदं साधितवन्तः अवच्छेदकम् इति नाम किम् तत्र वयम् उक्तवन्तः तत्र घटत्वम् अवच्छेदकम् इति अवच्छेदकं नाम किम् इति अवच्छेदकम् अवच्छेदकं किं करोति अवच्छेदकं वदति कुत्र एषः तत्र अधिकरणता कया निरूपिता अधिकरणता अस्ति आदेयतया निरूपिता अधिकरणता अस्ति खलु तत्र आदेयता अधिकरणता तयोः मध्ये निरूपकभावः अस्ति खलु
आम् महोदय
हा अतः तत्र आदेयता आदेयतया अधिकरणता निरूपिता अथवा अधिकरणतया आदेयता निरूपिता तथैव अत्रापि अत्र अतः आदेयः तत्र आदेयः घटः एष तत्र आदेयः घटः आदेयता घटे अस्ति तादृश आदेयता कुत्र वर्तते घटे वर्तते इति अनुक्त्वा वयं किं वदामः घटत्वम् अवच्छेदकं नाम यत्र घटत्वम् अस्ति तत्र एषा आदेयता वर्तते अतः आदेयतायाः अवच्छेदकं घटत्वम् इति वदामः यतोहि यत्र घटत्वम् अस्ति तत्र एव आदेयता अस्ति यत्र घटत्वं नास्ति तत्र आदेयता नास्ति एषा आदेयता तत्र एषा आदेयता या घटे अस्ति सा केवलम् अस्ति यत्र घटत्वम् अस्ति यत्र घटत्वं नास्ति उदाहरणार्थम् अत्र घटत्वं नास्ति तत्र आदेयता नास्ति यत्र घटत्वम् अस्ति तत्र आदेयता अस्ति यत्र घटत्वं नास्ति तत्र आदेयता नास्ति एतादृशधर्मः वयम् अवच्छेदकधर्मः इति वदामः. अवच्छेदकधर्मः सीमां रचयति, वदति अत्र एषः वर्तते, अत्र एषः न वर्तते. नाम यत्र अवच्छेदकः धर्मः, अवच्छेदकः सम्बन्धः, किमपि अवच्छेदकं यत्र अवच्छेदकम् अस्ति तत्र तत्र अवच्छेद्यम् अस्ति. यत्र नास्ति तत्र अवच्छेद्यमपि नास्ति. यत्र यत्र अवच्छेदकं तत्र तत्र अवच्छेदम् इति न वदामः, किन्तु यत्र अवच्छेदकम् अस्ति तत्र अवच्छेदमपि अस्ति, यत्र अवच्छेदकं नास्ति तत्र अवच्छेद्यमपि नास्ति इति. अत्र घटत्वम् अत्र अस्ति इति कृत्वा घटत्वम् अत्र अस्ति तत्र आदेयता अस्ति, घटत्वम् अत्र नास्ति तत्र आदेयता नास्ति. अतः घटत्वम् अवच्छेदकं भवति आदेयतायाः. आदेयता अधिकरणतां निरूपयति इति कृत्वा घटत्वम् अधिकरणतायाः अपि अवच्छेदकं भवति. यतोहि यत्र घटत्वम् अस्ति तत्र आदेयता अस्ति, यत्र आदेयता अस्ति तया निरूपित अधिकरणता अपि वर्तते. अतः तत्र यत्र तत्र साक्षात् अधिकरणतायाः विषये अपि न वक्तुं शक्नुमः, यतोहि तत्र अधिकरणता भूतले अस्ति, आदेयता अत्र अस्ति. किन्तु आदेयतायाः अवच्छेदकं स्वीकृत्य अधिकरणतायाः अवच्छेदकम् इति चिन्तनं तावदेव. अतः तत्र तत्र अवच्छेदकं नाम सीमां रचयति. तत्र अवच्छेदकं यत्र अस्ति, अवच्छेदकः अस्ति, अवच्छेदकः किं करोति, सीमां रचयति. लिमिटेड् लिमिटेशन् इति वदन्ति. अवच्छेदकः नाम लिमिटिङ्ग् एण्टिटि विच् लिमिट्स् नाम सीमां रचयति, रचयति अथवा प्रदर्शयति. तत्र कुत्र अस्ति, कुत्र आदेयता अस्ति, अतः तत्र एषा आदेयता घटत्व घटत्वेन तत्र अवच्छेद्यम् अस्ति, अपि एषा आदेयता या पटे अस्ति पटत्वेन अवच्छेद्या अस्ति इति. अतः तत्र वयं पूर्वम् अवच्छेदकता घटत्वं पटत्वम् इति स्वीकृत्य अवच्छेदकरूपेण स्वीकृत्य वयं भेदः साधितवन्तः. तत्र एषा अधिकरणता भिन्ना अस्ति, एषा अधिकरणता अन्या अस्ति इति. तत्र या अधिकरणता भूतले अस्ति घटनिरूपिता सा भिन्ना अस्ति, या अधिकरणता पटनिरूपिता अधिकरणता इति. प्रश्नः अस्ति वा, समीचीनमस्ति वा तत्र अवच्छेदकम् अवच्छेद्यम् इति तत्र?
अवच्छेदकम् इत्युक्ते घटत्वं, तदा अवच्छेद्यं कः?
अवच्छेद्यम् अत्र अस्ति आदेयता इति, साक्षात् आदेयता एव तत्र अवच्छेद्यम् अस्ति, अवच्छेद्या. किन्तु साक्षात् आदेयता एव तत्र, नाम यत्र अवच्छेदकम् अस्ति तत्र अवच्छेद्यम् इति स्वीकृत्य तत्र आदेयता घटे अस्ति, अत्र आदेयता पटे अस्ति. किन्तु एषा आदेयता अधिकरणतां निरूपयति, एषा आदेयता एताम् अधिकरणतां निरूपति इति कृत्वा वयम् अस्माकं चिन्तनं तत्र न्यायशास्त्रे अस्माकं चिन्तनमस्ति तत्र अवच्छेदकम् अस्य अवच्छेदकं स्वीकृत्य एतस्य अवच्छेदकं कुर्मः इति. यतोहि तत्र निरूपनिरूपकभावः अस्ति.
अस्तु महोदय.
नाम लिमिट् साक्षात् घटत्वम् इति तत् आदेयतायाः एव लिमिट् अस्ति खलु महोदय?
आम्, आदेयता एव तत्र रचिता अस्ति घटः मध्ये पटः मध्ये.
हा, आदेयता घटत्वं, यत्र घटत्वमस्ति तत्र एव आदेयता अस्ति. एषा आदेयता यत्र पटत्वमस्ति तत्र एव अस्ति किन्तु आदेयतया निरूपिता अधिकरणता अस्ति अतः वयं किं वदामः एषा अधिकरणता घटत्वेन अवच्छिन्ना अस्ति नाम एषा अधिकरणता घटत्वेन एतस्याः अधिकरणतायाः अवच्छेदकं घटत्वम् इति वदामः यतोहि तत्र मार्गः आदेयता या गच्छति मार्गः अतः तत्र डिरेक्ट् मार्गः नास्ति तत्र आदेयता उपयुज्य वयम् अवच्छेदकं कृतवन्तः समीचीनं वा अवगच्छति वा
आम् परन्तु अवच्छेद्यम् इदानीमपि आदेयता एव भवति
आदेयता भवति किन्तु प्रथमतया आदेयता भवति तदनन्तरम् आदेयता किं करोति आदेयतया अधिकरणता निरूपिता भवति इति कृत्वा तत्र घटत्वम् अस्य अवच्छेदकम् अपि अस्ति अस्याः अवच्छेदकम् अपि अस्ति ट्रान्स्फर् इति नाम आदेयता अस्ति चेत् एव एषा अधिकरणता भवति खलु
आम्
अतः
घटस्य आदेयता या अस्ति सा आदेयता पटस्य आदेयता तः भिन्ना कथम् औच्छेद्यं कथं करोति तत्र औच्छेद्यं घटत्वम् औच्छेद्यम् अस्ति
नाम अवच्छेदकः इति यः भेदः भेदं प्रदर्शयति सः अवच्छेदकः खलु
आम्
यस्य भेदं दर्शितम् अस्ति सः अस्ति तत्र अवच्छेद्यः अथवा अवच्छेद्यं खलु तत्र आदेयता भिन्ना अस्ति इति घटत्वेन पटत्वेन वयं साधितवन्तः नाम एषा आदेयता यत्र घटत्वमस्ति तत्र एव अस्ति एषा आदेयता यत्र पटत्वमस्ति तत्र एव अस्ति किन्तु यत्र एषा आदेयता अस्ति तत्र एव तदा एव एषा अधिकरणता अस्ति तयोः मध्ये निरूप्यनिरूपकभावः अस्ति अतः वयं वदामः घटत्वम् अधिकरणतायाः अवच्छेदकम् या एषा अवच्छेद्या अस्ति घटत्वम् अवच्छेदकम् अस्ति तत्र लिखामः तत्र नाम तत्र घटत्वं साक्षात् तत्र अवच्छेदकम् अस्ति अवच्छेदकम् अस्ति साक्षात् अवच्छेद्या अस्ति आदेयता किन्तु आदेयता निरूपित अधिकरणता अपि अस्ति इति कृत्वा अतः वयं घटत्वं तस्य अवच्छेद्यम् एतत् अवच्छेद्या इति एषः अवच्छेद् एतत् अवच्छेदकम् एषा अवच्छेद्या साक्षात् एषा एव अवच्छेद्यं किन्तु तया निरूपित अधिकरणता अवच्छेद्या इति चिन्तनीयं समीचीनं वा प्रश्नः अस्ति वा योगेन्द्रमहोदय
किञ्चित् किञ्चित् अवगच्छामि
अस्तु महोदय तत्र शोभगिनी प्रश्नः अस्ति वा
न अवगतवती इति मन्ये महोदय तत्र तत्र घटत्वेन अवच्छेदकता भवति अथवा अवच्छेद् घटः अवच्छेदयति अवच्छेद अवच्छेदयति
घटत्वं
घटत्वं क्षमतां घटत्वम् अवच्छेदयति तेन अवच्छेद्यता इति आधेयता भवति भवति इति
तेन अवच्छेद्य
अवच्छेद्य एव
आधेयता
आधेय तत्र इत्युक्ते तत्र घटः भूतलम् अधिकरणम् अतः घटः आधेयः तत्र अपि च भूतले यत् अधिकरणता अस्ति तत् घटेन स्वीकृतम् अधिकरणता अस्ति तत् घटस्य घटत्वेन अवच्छेद्यं
हा तत्र समीचीनं हा इति भवति नाम मार्गः तु मार्गः तु तत्र आदेयताया गच्छति मार्गः यतोहि तत्र घटत्वम् अत्र अस्ति अधिकरणता अत्र अस्ति पटत्वम्
आधेयता इति आधेयः अस्ति किन्तु आधेयता इति घटे एव अस्ति अतः तत्र अनन्तरं घटत्वनिष्ठ किं तत्र घटत्वनिष्ठ अवच्छेदकता
निरूपित
निरूपित
अधिकरणतानिष्ठ अवच्छेदकता
अधिक घटत्वनिष्ठ अवच्छेदकता निरूपित
सत्यं समीचीनं भगिनि हा हा तदेव एकवारं कुर्मः एकनिमिषः तत्र किञ्चित् तत्र स्थानं प्राप्तुम् इच्छामि अत्र एकनिमिषः तत्र हा अस्तु तत्र किं कुर्मः तत्र एतत् सर्वं किञ्चित् लघ्वीकुर्मः अस्तु हा अतः तत्र तत्र घटत्वम् इति स्थापयामः तत्र घटत्वे अवच्छेदकता अस्ति अवच्छेदकता अस्ति अपि तत्र साक्षात् तत्र किमस्ति तत्र आदेयता या अस्ति सा अवच्छेद्या अस्ति तस्मिन् अवच्छेद्यता अस्ति किन्तु तत्र यथा अत्र निरूप्यनिरूपकभावः अस्ति तथैव तत्र निरूप्यनिरूपकभावः अत्र अपि अस्ति खलु तत्र आदेयता अपि तत्र अधिकरणता एषा आदेयता तत्र घटे अस्ति एषा अधिकरणता भूतले अस्ति अतः तत्र वयं किं चिन्तयामः वयम् अस्तु घटत्वम् अवच्छेदक घटत्वे अवच्छेदकता अस्ति अधिकरणतायाम् अवच्छेद्यता अस्ति इति चिन्तनं नाम तत्र सर्वम् आहत्य किं भवति घटत्वम् अपि तत्र अधिकरणता इति एव तिष्ठति
हा इत्युक्ते तत्र महोदय वस्त्रं वस्त्रे क्षमतां भूतले तत्र तत्र यद् स्वीकृतम् अस्ति भूतलं तस्मिन् सर्वस्यापि अधिकरणम् अस्ति किन्तु तम् अधिकरणं तस्य अधिकरणस्य अवच्छेदनं भवनीयम्
इति न अधिकरणता इति
क्षमताम् अधिकरणता अस्ति तस्याः अधिकरणतायाः अवच्छेदनं करणीयम् अतः तत्र घटत्वेन पटत्वेन वयं कुर्मः घटत्वे घटत्व अवच्छेदकः भूत्वा भूतले अधिकरणतायाः अवच्छेदनं करोति अतः तत्र अवच्छेद्यता अधिक भवति भूत् अधिकरणता
हा समीचीनं नाम तत्र
अधिकरणता एव अवच्छेद्यं तत्र अवच्छेद्यता
समीचीनं
तथा एव पटत्वेन
समीचीनं
पटत्वेन अवच्छिन्न अधिकरणता भिन्ना अस्ति
समीचीनं भगिनि नाम तत्र वयम् एतद् एव स्वीकुर्मः तत्र अवच्छेद्यता तदनन्तरं तत्र अधिकरणता इति स्वीकुर्मः तां नाम एतत् एतत् अपि तदनन्तरम् एतत् तावदेव अस्माकम् अन्ते चित्रः अधिकरणता इति एव अवच्छेद्या अस्ति अधिकरणतायाम् अवच्छेद्यता अस्ति घटत्वे अवच्छेदकता अस्ति इति अतः तत्र पूर्वं तत्र धर्मः तत्र पटत्वं घटत्वम् अथवा जातिः स्वीकृत्य वयं भेदः साधितवन्तः तत्र एषाधिकरणता तत्र अस्याः अधिकरणतयाः भिन्ना अस्ति इति. किन्तु अत्र अस्मिन् सन्दर्भे तत्र अस्मिन् उदाहरणे घटत्वम् इति धर्मः वर्तते. तत्र सर्वत्र घटत्वं वर्तते, नाम तत्र आदेयत एषा आदेयत घटत्व अवच्छिन्ना अस्ति, यतोहि यत्र यत्र घटत्वम् अस्ति तत्रैव एषा आदेयता अस्ति, एषा आदेयत अपि तथैव अस्ति. अतः तत्र सर्वत्र घटत्वम् एव अवच्छेदकम् अस्ति. किन्तु घटत्वम् इति अवच्छेदकं सर्वत्र अस्ति इति कृत्वा तेन कोऽपि लाभः नास्ति, नाम तेन भेदः न साधितुं शक्नुमः, भेदं साधितुं न शक्नुमः अस्मिन् सन्दर्भे, यतोहि सर्वत्र तत्र घटत्वम् अस्ति. घटत्वम् अवच्छेदकमस्ति किन्तु तेन तत्र लक्ष्यं न साधितम्.
अतः तत्र महोदय दलद्वयं स्वीकृतं खलु, तत्र घटत्व अवच्छेदकता अपि च अन्यत् किमपि समवायः वा अथवा विषयता
सम्बन्ध
सम्बन्धम् अपि स्वीकृ तत्र घटत्वम् अपि च सम्बन्धं स्वीकृत्य दलद्वयं स्वीकृत्य अवच्छेद अवच्छिन्ना भवति अधिकरणता.
इति तत्र अवच्छिन्ना इति विषये एकं किञ्चित् पुनः अभ्यासं कुर्मः तर्हि तत्रापि एकवारं, यतोहि तत्र सर्वे सम्यक्तया जानन्ति न वा इति यदि तत्र प्रश्नः अस्ति चेत् तत्र एतदेव स्वीकुर्मः तर्हि तत्र अस्माकं चित्रः एतद् भवेत्, यत्र घटत्वं अपि तत्र अधिकरणता इति स्वीकुर्मः. पूर्वस्मिन् उदाहरणे यदस्ति तदेव स्वीकुर्मः, अधिकरणता. घटत्वम् अवच्छेदकम् अस्ति, अतः तत्र घटत्वे अवच्छेदकता अस्ति. किमर्थं तत्र चकारः सर्वदा क्लिष्टः भवति? सो अवच्छेदकता अवच्छेद्यता अस्ति. तत्र एतत् चित्रस्य वर्णनं कथं कुर्मः, तत्र प्रेमलता भगिनी किञ्चित् प्रयत्नं करोति वा? तत्र अधिकरणता कीदृशी इत्युक्ते तत्र वयं किं वदामः? प्रेमलता भगिनि
अस्तु महोदय, अधिकरणता
कीदृशी इत्युक्ते वयं किं वदामः?
घटत्वावच्छिन्न आधेयत अधिकरण.
अस्तु भगिनि, हा अवच्छिन्न एव समीचीनं, किन्तु प्रथमतया तत्र दीर्घवाक्यं वदतु, तत्र घटत्वनिष्ठ इति आरभ्य
घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता वती अधिकरणता अस्ति
इति समीचीनं. समीचीनं, तादृशदीर्घवाक्यं वदामः, नो चेत् तत्र शार्ट्कट् अस्ति. शार्ट्कट् किम् अस्ति तत्र?
घटत्वावच्छिन्न आदेयतावती अधिकरणता.
तत्र घटत्वावच्छिन्न अधिकरणता तावदेव, घटत्व अवच्छिन्न
अधिकरणता. ओके,
तावदेव अस्ति. घटत्व अवच्छिन्न घटत्वावच्छिन्न अधिकरणता इति शार्ट्कट् अस्ति. घटत्वावच्छिन्न अधिकरणता इत्युक्ते एतत् चित्रम् अस्माकं मनसि भवेत्. एतत् चित्रं कोऽपि दर्शयति चेत् अस्तु घटत्वावच्छिन्न अधिकरणता अस्ति, नाम घटत्वम् अस्ति, घटत्वे अधि अवच्छेदकता अस्ति, अधिकरणतायाम् अवच्छेद्यता अस्ति, तयोः मध्ये निरूप्यनिरूपकभावः अस्ति, अतः तत्र घटत्वावच्छिन्न अधिकरणता इति वदामः. तत्र अवच्छिन्न इति शार्ट्कट् अस्ति अस्माकं, समीचीनं भगिनि. हा तत्र केवलम् अवच्छिन्न इति उपयुज्य एतस्य मार्गस्य मार्गस्य तत्र उपयोगम् अकृत्वा केवलं शार्ट्कट् मार्गेण वयं गच्छामः तत्र अवच्छिन्न इति उक्त्वा. समीचीनं. हा
महोदय, तत्र दलद्वयम् अस्ति चेत् तथा एव वदामः वा? घटत्व अवच्छिन्न
अधिकरणता. अग्रे एतत् कुर्मः भगिनि. समीचीनं, दलद्वयम् अस्ति चेत् इदानीम् अग्रे एव तत्र अग्रिमे उदाहरणे एतदेव कुर्मः. समीचीनम्. अतः इदानीं तत्र यद् इदानीं तत्र पुनः तत्र अस्मिन् पुटे एव पेज् 46 एव एतत् सर्वं यत् गतवर्गे कृतवन्तः इदानीं तत्र अस्ति अस्माकं तत्र पूर्ववत् समवायनिष्ठ इति. हा तत्र यद् स्वीकुर्मः किञ्चित् वदामः तर्हि तत्र अत्र अस्ति घटः कपाले अस्ति इति. घटः कपाले अस्ति अतः तत्र एतत् स्वीकुर्मः. तत्र घटः अस्ति, कपालः अस्ति. घटे किम् अस्ति?
घटत्वं.
हा किन्तु तत्र घटः कपाले अस्ति इति प्रथमतया, अतः
आधेयता अस्ति.
आधेयता अस्ति, आधेयता अस्ति. अत्र अधिकरणता अस्ति, अधिकरणता अस्ति. हा इदानीं तत्र इदानीम् आधेयता कीदृशी इति वर्णनम्, अतः तत्र तस्य अवच्छेदकम् अथवा किम् अस्ति इति प्रश्नः. अतः तत्र वयं किं स्वीकृतवन्तः, तत्र घटः तत्र सम्बन्धः एव अवच्छेदकः भवेत् इति अस्माकं चिन्तनं. तर्हि इदानीं प्रश्नः, घटः कपाले कस्मिन् सम्बन्धेन अस्ति, केन सम्बन्धेन अस्ति?
समवायसम्बन्धेन.
समवायसम्बन्धः अत्र, अतः समवायसम्बन्धः अपि तत्र समवायसम्बन्धः इति घटे एव अस्ति. समवाय इति सम्बन्धः घटे अस्ति, कपाले अपि अस्ति. किन्तु कपाले अस्ति इति इदानीं तत्र तस्य कार्य किमपि कार्यं नास्ति इति कृत्वा समवायः घटे अस्ति. एषः समवायः तत्र अवच्छेदकं भवति, अवच्छेदकः भवति आदेयतायाः. अतः तत्र समवाये किमस्ति? समवाये अवच्छेदकता अस्ति, आदेयता अवच्छेद्या अस्ति. अस्तु, इदानीम् एतावत्पर्यन्तं विवरणं कुर्मः तर्हि तत्र केवलम् एतस्य भागस्य. हा तत्र नाम एकनिमिषः, तत्र हा तत्र आदेयतायाः निरूपणं कुर्मः समवायः इति आरभ्य. तत्र योगेन्द्रमहोदय प्रयत्नं करोति वा? आदेयता कीदृशी समवाय आरभ्य. दीर्घवाक्यं वदतु तर्हि समवाय एतादृशमार्गेण गच्छतु.
समवाय निष्ठ अवच्छेदकता निरूपता औच्छेद्याश्रय आश्रय आदेयता.
आधेयता अथवा अवच्छेद्या आश्रयः इति स्थाने तत्र मतु प्रत्ययः भवति चेत् तत्र धनवान् धनवती धनवत् इति तादृशप्रयोगं कुर्मश्चेत् किं भवति? अवच्छेद्या तत्र लिङ्गं किम् अपेक्षितम्?
अवच्छेद्या
अन्ते तत्र किं भवति? धनवती धनवत्
अवच्छेद्यावती.
अवच्छेद्यावती आधेयता
आधेयता
हा पुनः एकवारं वदतु
समवायनिष्ठः अवच्छेदकता निरूपिता अवच्छेद्यतावती आधेयता
तथैव तदेव लिखितमस्ति तत्र खलु
आम्
हा अस्तु समीचीनं हा इदानीं तत्र दीप्ति भगिनी तत्र अग्रिमवाक्यस्य अर्थः कः इति किञ्चित् वदति वा तर्हि तत्र अग्रिमवाक्यम् एतदस्ति तत्र
अधेयता निष्ठ अवच्छेद्यता निरूपित अवच्छेदकतावान् समवायः
हा केवलं तत्र विपरीतदिशि वर्णनं भवति तावदेव खलु समवाय इति आरभ्य आदेयतापर्यन्तं गच्छामश्चेत् एतत् विवरणम् आदेयता कीदृशी किन्तु समवायः कीदृशः इति प्रश्ने सति आदेयता इति आरभ्य एतावत् वर्णनं भवति चेत् एतत् वाक्यं सिद्धं भवति खलु आदेयता निष्ठ अवच्छेद्यता अवच्छेद्यता निरूप हा निरूपित हा अवच्छेद्यता हा तत्र मम दोषः आसीत् क्षम्यतां हा अवच्छेद्यता इति भवेत् हा क्षम्यताम् अवच्छेद्यता इति अवच्छेद्यता निरूपित अवच्छेदकता वान् समवायः इति तत्र आदेयतायाः विवरणं तत्र अवच्छिन्ना तत्र नाम इदानीं शार्ट्कट् इति उपयोगं कुर्मः चेत् किं भवति अत्र यत्र शार्ट्कट् अस्ति चेत् किं वदामः
समवायः
अवच्छिन्न
अवच्छिन्न अवच्छिन्न आधेयता
समवायसम्बन्धावच्छिन्न आधेयता अथवा समवायावच्छिन्न आधेयता इति भवति तावदेव तत्र अवच्छिन्न तत्र अवच्छिन्न अवच्छिन्न इति शार्ट्कट् अस्ति हा अस्तु इदानीं तत्र अग्रे धन्यवादः समीचीनं भगिनी अस्तु इदानीं
धन्यवादः
हा प्रेमलता भगिनी इदानीं तत्र अग्रिमवाक्यं तत्र एतद् यत् वाक्यमस्ति अत्र तस्य प्रयत्नं कुर्मः वा तत्र एतद् वाक्यम् ज्ञानं कीदृशम् इति वाक्यम् भवती वदतु किं किं लेखनीयम् इति अहं लिखामि अत्र प्रेमलता भगिनी
अस्तु महोदय घटे विषयिता अस्ति
हा अस्तु घटे विषयिता अस्ति अस्तु समीचीनम् अस्तु तर्हि तत्र अहं एतत् करोमि तर्हि एकनिमिषं
महोदय विषयिता इति नाने अस्ति वा घटे अस्ति वा
न न विषयता अस्ति घटे महोदय घटे विषयता अस्ति ज्ञाने विषयिता अस्ति
हा तत्र घटः विषयिता सम्बन्धेन तत्र ज्ञाने वर्तते खलु तत्र
महोदय
हा तत्र एकनिमिष तत्र पश्यामः किन्तु प्रश्नः समीचीनः एव तत्र एकनिमिष तत्र पश्यामः तत्र ज्ञानं तद्विषयता इति तत्र विषये यः सम्बन्धः तत्र एव तत्र विषयता घटे अस्ति हा तत्र कुत्रापि लिखितमस्ति नाम तत्र घटः तत्र हा अत्र एव प्रायशः दत्तमस्ति खलु तत्र विषयिता इति दत्तमस्ति किन्तु तत् मुद्रणदोषः वा तथा न तत्र समीचीनमेव भगिनि तत्र विषयिता एव समीचीनम् अग्रिमे पुटे मुद्रणदोषः अस्ति 47 मध्ये
बिन्दु एक एकबिन्दु अस्ति न विषयता
अत्र अत्र मुद्रणदोषः अस्ति अत्र एतत् विषयिता भवेत् विषयिता इति समीचीनं विषयता न विषयिता किन्तु अत्र समीचीनमेव विषयिता एव अतः तत्र
तत्र महोदय सन्देहः विषयता घटे भवति विषयिता ज्ञाने एव भवति किन्तु तत्र सम्बन्धस्य विषये विषयिता इति भवति वा
हा हा तत्र
विषयिता सम्बन्धः
सत्यं भगिनि व्यवहारे एषः अस्ति नाम पदार्थः विषयितासम्बन्धेन ज्ञाने वर्तते यत्र विषयः
तत्र सम्बन्धस्य विषयः आगच्छति चेत् विषयिता इति
नाम पदार्थः अपि ज्ञानं यत्र अस्ति अत्र पदार्थः आदेयः अपि ज्ञानम् अधिकरणम् इति चिन्तयामश्चेत् तत्र विषयिता इति वदामः
तत्र यतोहि ज्ञानम् इति ज्ञानम् इत्यस्य अधिकरणतायाः विषयः अतः ज्ञाने विषयी विषयिता अस्ति इति कृत्वा विषयिता इति अवच्छेदकं
ज्ञानं विषयी अस्ति हा अपि यत्र तत्र पदार्थः नाम विषयः अस्ति तत्र अग्रे वयं पश्यामः तत्र सम्बन्धस्य द्विनिष्ठता भवति नाम तत्र संयोगः हस्तस्य हस्तद्वयमस्ति संयोगः तयोः संयोगः भवति इति अस्माकं प्रथम उदाहरणं खलु हस्तद्वयं नमस्कारं कुर्मः तत्र संयोगः संयोगस्य वियोगः भवति इति तत् सर्वं तत्र संयोगसम्बन्धः एक प्रथमहस्ते अपि अस्ति द्वितीये हस्ते अपि अस्ति तत्र संयोगसम्बन्धः द्विनिष्ठः इति तादृशव्यवहारः भवति इति अग्रे पश्यामः किन्तु अत्र किं भवति ज्ञानम् इति ज्ञानम् आदेयः इति चिन्तयामश्चेत् ज्ञानं पदार्थे नाम विषये तत्र विषयतासम्बन्धेन अस्ति तत्र विषयः विषयः नास्ति चेत् तत्र सम्बन्धः एव न भवति इति अस्ति समीचीनं वा प्रश्नः कोऽपि प्रश्नः वा समीचीनं वा शोभा भगिनी
आम्
महोदय तत्र विपरीतदिशि अपि वयं गन्तुं शक्नुमः तत्र केवलं नामकरणं तावत्येव तत्र विषयता विषयिता इति सम्बन्धः पदार्थः विषयः विषयितासम्बन्धेन ज्ञाने अस्ति ज्ञानं विषयतासम्बन्धेन विषये अस्ति इति अस्तु समीचीनम् इदानीं तर्हि तत्र एतत् सर्वं तत्र अधोभागे प्रेषयामः तथा एव तत्र अस्माकं वाक्यं अस्तु इदानीम् अस्माकं वाक्यं तत्र वाक्यमस्ति चित्रं दर्शयामः अस्तु भगिनि तत्र तर्हि प्रेमलता भगिनि तर्हि तत्र ज्ञानम् अस्ति अपि घटः अस्ति अतः तत्र अत्र ज्ञानम् इति लिखामि ज्ञानं घटः हा अस्तु इदानीं तत्र घटः विषयितासम्बन्धेन अस्ति अतः विषयिता इति तत्र घटे अस्ति इति चिन्तयामः अस्तु तत्र घटे आदेयता अस्ति
आदेयता अस्ति ज्ञाने अधिकरणमस्ति
अधिकरणता अस्ति
अधिकरणता अस्ति
अधीयता अस्ति इदानीं तत्र विषयिता अपि आदेयत तयोः मध्ये कीदृशः सम्बन्धः भावः कीदृशभावः तत्र अवच्छेदक
अवच्छेदकम् सम्बन्धस्य अवच्छेदकम्
हा सम्बन्धः एव अवच्छेदकः भवति अतः तत् विषयिता इति सम्बन्धः तस्मिन्
अवच्छेदताय अवच्छेदक भवति.
हा समीचीनम्, अवच्छेदकता अस्ति, विषयतासम्बन्धः अवच्छेदकः अस्ति, आदेयत अवच्छेद्या अस्ति,
अवच्छेद्यता,
अवच्छेद्यता समीचीनम्, अवच्छेद्यता तत्र आदेयतायाम् अस्ति. अतः तत्र हा इदानीं तत्र एतत् वाक्यं विषयिता इति आरभ्य तत्र कुत्र कुत्र गच्छामः, विषयिता सम्बन्ध
विषयिता सम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता वति आदेयता.
हा इदानीम् एतत् एतदस्ति, किन्तु तस्य लघु लघुमार्गः नाम शार्ट्कट् इति किं भवति,
विषयिता विषयिता सम्बद्धावच्छिन्न आदेयतावति
इति. हा तदेव अत्र अस्ति खलु, विषयिता सम्बन्धावच्छिन्न आदेयता. आदेयत कुत्र अस्ति,
घटे अस्ति.
हा अतः घटनिष्ठ आदेयता, अतः तत्र विषयिता सम्बन्धावच्छिन्न घटनिष्ठ आदेयता निरूपित
निरूपित अधिकरणता
निरूपित अधिकरणता वत् ज्ञानम्, विषयितासम्बन्धावच्छिन्न घटनिष्ठ आदेयता निरूपित अधिकरणतावत् ज्ञानम् इति एतस्य चित्रस्य विवरणम् अथवा अत्र एतस्य वाक्यस्य चित्रम् इति. प्रश्नः अस्ति वा, तत्र सर्वं समीचीनं वा, स्पष्टमस्ति, अस्तु समीचीनम्. तथैव तत्र कालिकसम्बन्धावच्छिन्न अपि तादृशमेव, तत्र किं करणीयं, तत्र कालिकसम्बन्धः इति स्वीकुर्मश्चेत् तत्र अन्यस्मिन् तत्र धोरणे रचयामः तत्र कालिकसम्बन्धः अस्ति चेत् तत्र किं कुर्मः, तत्र केवलं सर्वं तत्र अत्र एव अस्ति, अत्र महाकालः अस्ति, अपि अत्र अस्मि विषयिता सम्बन्धस्थाने तत्र कालिका कालिकासम्बन्धः इति एव भवति, तावदेव. अन्यत् किमपि तत्र परिवर्तनं तस्य अन्यस्य किमपि तत्र परिवर्तनं तत्र परिवर्तनं न अपेक्षितम् इति. अस्तु इति अस्ति. अस्तु तत्र एतावत् एतत् सर्वं वयं गतवर्गे पठितवन्तः, किन्तु पुनः अपि तत्र ध्वनिं दृढं नास्ति इति कृत्वा तत्र यदि पुनः तत् तत् कुर्मश्चेत् लाभः इति चिन्तितवान्. अस्तु इदानीं तत्र इदानीं तत्र अन्तिमभागः यत्र तत्र उक्तमस्ति, नाम तत्र घटत्वेन घटत्वम् अवच्छेदकम् अस्ति तत्तु सत्यं, किन्तु तेन कोऽपि लाभः नास्ति, यतोहि सर्वत्र घटत्वम् अस्ति, किन्तु तदपि स्वीकृत्य सम्बन्धः अपि अवच्छेदकरूपेण स्वीकुर्मश्चेत् ज्ञानं कीदृशं भवति, वाक्यं कीदृशं, स्थितिः तत्र परिष्कृतं वर्णनं नाम पालिश्ड् रिफैन्ड् इति तत्र तादृशवर्णनं भवेत् इत्युक्ते तत्र घटत्वस्य अवच्छेदकम् अपि स्वीकुर्मः, सम्बन्धस्य अवच्छेदकमपि स्वीकुर्मः, सम्बन्धस्य अवच्छेदकत्वमपि स्वीकुर्मः, घटत्वस्य अपि अवच्छेदकत्वं स्वीकुर्मश्चेत् किं भवति इति अत्र दत्तमस्ति. अतः तत्र एतत् कुर्मः, तत्र अन्तिमतृतीयं कुर्मः तर्हि. अतः तत्र किं किम् अस्ति इति सर्वे मिलित्वा वदन्तु तर्हि, तत्र चित्रं स्थापयामः. तत्र आरम्भे तत्र किमस्ति, ज्ञानं कीदृशमस्ति, तत्र घटः कुत्र अस्ति? तृतीयवाक्यम् अत्र
संयोगसम्बन्धेन भूतले अस्ति.
हा समीचीनम्. अस्तु,
घटः भूतलं,
घटः भूतले अस्ति, समीचीनम्. अतः तत्र तत् प्रथमतया स्थापयामः. तर्हि तत्र घटः इति अस्ति, भूतलम् इति अस्ति, भूतलम् अधिकरणम् अतः अधिकरणता अत्र अस्ति. अत्र आदेयता अस्ति, आदेयता अधिकरणता भूतलम् अस्तु. अपि तत्र घटत्वमपि अस्ति, अतः घटत्वमपि स्वीकुर्मः. घटत्वम् इति अस्ति, घटत्वम् अवच्छेदकम् अस्ति खलु? अतः तत्र घटत्वे अवच्छेदकता अस्ति. अपि अत्र अवच्छेद्यता अस्ति. आदेयता इति अस्ति. अपि तत्र एतावत् तत्र घटत्वमेव स्वीकृतं, किन्तु संयोगसम्बन्धः अपि स्वीकरणीयः. अतः तत्र पुनः तत्र वयं संयोगसम्बन्धः इति स्वीकुर्मः. तत्र संयोगः इति लिखामः, तर्हि तत्र संयोगः कुत्र लिखामः? एतत् एषः एव प्रश्नः. तत्र मल्टि डिमेन्शनल् भवति अस्माकं चित्रम् इदानीं. तत्र अस्तु, तत्र अत्र लिखामः. तर्हि तत्र संयोगः इति भवेत्, संयोगः अथवा एकनिमिषः तत्र वदामः. अस्तु, किञ्चित् अधोभागे हा अत्र स्थापयामः. तत्र तर्हि आदेयता, निरूपित, अधिकरणता इति कुर्मः. तत्र इदानीं तत्र अन्यत् स्थापयितुं शक्नुमः. अस्तु, इदानीं तत्र संयोगः सम्बन्धः. तत्र संयोगे अपि अवच्छेदकता अस्ति,
छेदकता.
अपि पुनः अवच्छेद्यता, आदेयता इति अस्ति. समीचीनं वा? अतः तत्र अत्र किमस्ति आरम्भे, कुतः आरम्भं भवति? तत्र
घटत्वनिष्ठ अवच्छेदकता.
न चित्रं न दृष्ट्वा, किन्तु वाक्यं दृष्ट्वा, तत्र वाक्ये
संयोगसम्बन्ध
अतः तत्र अतः आरभ्य संयोग सम्बन्धावच्छिन्न, तत्र शार्ट्कट् शार्ट्कट् अस्ति. सम्बन्ध आवच्छिन्नः शार्ट्कट्, अत्रापि शार्ट्कट्. संयोगसम्बन्धावच्छिन्न,
संयोगसम्बन्ध अवच्छिन्न आधेयता,
आधेयता. किन्तु तादृशी आधेयता इति वदामः, तत्र तत् संयोगावच्छिन्न, संयोगसम्बन्धावच्छिन्न आधेयता इति एकम्. अपि पुनः
घटत्व अवच्छिन्न आधेयता.
किन्तु एका एव आधेयता अस्ति खलु, अतः एष एका एव आधेयता. संयोगसम्बन्धावच्छिन्ना अपि अस्ति, घटत्वावच्छिन्ना अपि अस्ति इति कृत्वा तत्र विशेषणत्वेन तत्र संयोगसम्बन्धावच्छिन्ना आधेयता, घटत्वावच्छिन्न आधेयता इति. तत्र एका एव आधेयता, किन्तु संयोगसम्बन्धावच्छिन्ना अस्ति, घटत्वावच्छिन्ना अपि सा एव अस्ति. समीचीनं वा? एतावत्पर्यन्तं तदेव अस्ति.
आं महोदय.
संयोगसम्बन्धावच्छिन्न एतद् भागं, घटत्वावच्छिन्न आधेयत अत्र. इदानीं तत्र आधेयत एतादृशी, तया आधेयतया निरूपित अधिकरणता. तत्र निरूपित अधिकरणतावत् भूतलम् इति वक्तुं शक्नुमः. एतत् परिष्कृतं वर्णनं नाम अवच्छेदकद्वयमस्ति, द्वयमपि अत्र वर्णने विवरणे अस्ति. तत्र पालिश्ड् इति नाम रिफैन्ड् सर्वं तत्र यत् वयम् अवगतवन्तः तत्सर्वं वयं स्थापितवन्तः वाक्ये इति. अतः तत्र अवच्छिन्न धर्मः अपि अवच्छेदकः भवितुमर्हति, अपि तत्र सम्बन्धः अपि अवच्छेदकः भवितुमर्हति, धर्मः अपि अवच्छेदकः भवितुम् अर्हति. अत्र किमस्ति, सम्बन्धं स्वीकृत्य एव भेदं साधितुं शक्नुमः, यतोहि सर्वत्र घटत्वं वर्तते. अतः अत्र दृष्ट्वा भेदः इति न साधितुं शक्नुमः, अत्र दृष्ट्वा पश्यतु संयोगः इति अवच्छेदकः अस्ति, संयोगसम्बन्धः अवच्छेदकः अस्ति. अन्यस्मिन् स्थले तत्र समवायः एव अवच्छेदकः आसीत्, अन्यस्मिन् स्थले तादात्म्यसम्बन्धः एव अवच्छेदकः अस्ति. अतः तेन अवच्छेदकेन वयं तत्र सम्बन्धस्य अवच्छेदकः सम्बन्धः अवच्छेदकः यः अस्ति तेन वयं भेदं तत्र आदेयताः भिन्नाः इति साधितुं शक्नुमः. एतावत् समीचीनं वा?
आं महोदय, स्पष्टम् इति मन्ये.
अस्तु, इदानीं तत् अस्तु, इदानीं तर्हि अग्रे गच्छामः. तर्हि तत्र तत्र
भवान् उक्तवान् यत्र यत्र अवच्छेदकं तत्र तत्र अवच्छेदे नास्ति.
न न न, मम तत्र केवलं तत्र केवलम् अवच्छेदकं किम् इति अवगन्तुं तत् उक्तवान्. नाम यत्र अवच्छेदकम् अस्ति तत्र अवच्छेदम् अस्ति इति चिन्तयतु, यत्र अवच्छेदकं नास्ति तत्र अवच्छेद्यं नास्ति इति चिन्तयतु. नाम केवलं तत्र केवलम् सुलभ अवगमनार्थं तत्र प्रायशः किञ्चित् दोषः अस्ति, केवलं तत्र लिमिट् अस्ति इति. नाम केवलम् अत्र आदेयता केवलं घटे अस्ति इति कथं वदामः? तत्र घटत्वं यत्र अस्ति तत्र एव आदेयता अस्ति. एषा अधिकरणता कदा भवति? एषा अधिकरणता तदा भवति यदा घटत्वम् अस्ति, खलु? घटत्वम् अस्ति चेत् एव एषा आदेयता भवति, एषा अधिकरणता भवति. अतः घटत्वम् अस्ति चेत् एषा अधिकरणता भवति, पटत्वम् अस्ति चेत् एषा अधिकरणता भवति, पटत्वं नास्ति चेत् एषा अधिकरणता न भवति. एतदेव अवच्छेदकम् इति. तत्र पूर्वम् अस्माकम् उदाहरणम् आसीत् तत्र पात्रम् इति स्वीकृत्य, लघुपात्रे तत्र क्षीरमस्ति, बृहत् पात्रे अपि क्षीरमस्ति. तत्र पात्रं दृष्ट्वा वयं जानीमः एतत् क्षीरम् अन्यात् क्षीरात् भिन्नं, यतोहि पात्रम् अस्ति, तत्र आश्रयः अस्ति. किन्तु सर्वदा वयम् आश्रयः इति न वदामः, तत्र किम् अस्ति इति वदामः. नत्र नाम घटः इति आश्रयः, घटः इति न वदामः, घटे किम् अस्ति इति वदामः, तावदेव भेदः. घटः अस्ति इति अनुक्त्वा घटत्वम् अस्ति, घटत्वम् अस्ति इति वदामः न्यायशास्त्रे, तावदेव. अतः घटत्वं लिमिटिङ्ग् क्वाण्टिटि, घटत्वं घटः इति अनुक्त्वा घटत्वं, घटत्वमस्ति अवच्छेदकं. पटः पटे अस्ति इति अनुक्त्वा तत्र, अथवा पटः यत्र अस्ति इति अनुक्त्वा तत्र पटत्वम् अवच्छेदकम् इति वदामः. अवगतं वा भगिनि? समीचीनं वा?
धन्यवादः.
तत्र आङ्ग्लभाषायां वदन्ति तत्र लिमिटिङ्ग्, तत्र सीमां रचयति, नाम तत्र अत्र एव अस्ति, सर्वत्र नास्ति इति वक्तुम् इच्छामः, तदेव अवच्छेदकम्. अवच्छेदकं किं करोति? एतत् सर्वत्र नास्ति, केवलम् अत्र एव अस्ति इति प्रदर्शयति.
अस्तु,
क्षीरं लघुपात्रे अस्ति, एतत् क्षीरम् अत्र एव अस्ति, अन्यत्र नास्ति, पश्यतु इति पात्रेण वयं प्रदर्शयामः. तथैव अवच्छेदकं दृष्ट्वा वयं वदामः खलु, पश्यतु एतत् अत्र एव अस्ति, अन्यत्र नास्ति खलु इति. अन्य कोऽपि प्रश्नः तत्र अवच्छेदकम् अवच्छेद्यम् इति तत्र बहुवारं पश्यामश्चेत् मनसि आगच्छति. केवलं तत्र भाषा तादृशी अस्ति न्यायशास्त्रे तत्र, किन्तु तत्र विषयः तत्र क्लिष्टः नास्ति. अस्तु, अन्य तत्र किञ्चित् अग्रे सरामः तर्हि तत्र नूतनविषयः तत्र तर्हि तत्र शोभा भगिनी किञ्चित् पठति वा तत्र प्रतियोगितायाः इति.
आं महोदय,
एतत्
प्रतियोगितायाः सम्बन्ध अवच्छिन्नत्वं तुल्यन्यायात् अयम् एव च उपायः प्रतियोगित्वस्थले अपि ज्ञातव्यः. तत्र भूतले समवायेन घटो नास्ति, कपाले संयोगेन घटो नास्ति. काले विषयतासम्बन्धेन घटो नास्ति इति अभावात् अभावान् यदि चिन्तयामः तदा तस्य अभावस्य प्रतियोगिताः तिस्रः घटे एव वर्तन्ते. तासां च परस्परं भेदज्ञापनाय न घटत्व उपयोगः, सर्वत्र तस्य एकस्य एव अवच्छेदकत्वात्. तत्र अस्तु, प्रतियोगिता इति यस्मिन् अपि पदार्थे एव अस्ति. प्रतियोगितायाः सम्बन्ध अवच्छिन्नत्वं तुल्यन्यायात् इति, अयम् एव च उपायः प्रतियोगित्वस्थले अपि ज्ञातव्यः.
नाम
इत्युक्ते
सम्बन्धस्य किं कृतवन्तः, आदेयताः आसन् खलु तत्र घटः.
आदेयताः, आम्,
घटः आसीत्,
बहवः आदेयताः आसन्,
आदेयताः आसन्. इदानीं तत्र वदति आदेयताः स्थले यदि प्रतियोगिताः अस्ति,
आम्, अयमेव उपायः तत्रापि.
भिन्नभिन्नाः प्रतियोगिताः सन्ति चेदपि अयमेव उपायः भवति, नाम तत्रापि सम्बन्धावच्छिन्न
सम्बन्धावच्छिन्नेन
सम्बन्धः एव अवच्छेदकम् अवच्छेदकः
भवति इति
सः वदति. कथम् इति अग्रे दत्तमस्ति. उदाहरणार्थं किं किम् अस्ति
तत्र,
घटः भूतले अस्ति, घटः कपाले अस्ति इति एतत् सर्वं स्वीकृतवन्तः. इदानीं किम् अस्ति
तत्र, भूतले समवायेन घटो नास्ति. अधुना संयोगेन इति जानीमः, तत्र भूतले समवायेन घटो नास्ति.
अस्तु, अत्र किञ्चित् किञ्चित् सोपानेन गच्छामः. तत्र पूर्वं तत्र आदेयताः आसन्, तत्र घटः भूतले अस्ति, घटः कपाले अस्ति इति तत्र सर्वत्र आदेयताः आसन्. अत्र प्रतियोगिता इति वदति, प्रतियोगिता इति एव मूलविषयः. प्रतियोगिताः भिन्नाः इति प्रदर्शनार्थं तत्र सम्बन्धस्य उपयोगः भवति इति अस्माकं मूलविषयः नाम. किन्तु प्रतियोगितास्थले किमर्थं तत्र घटः नास्ति इति वदति लेखकः?
यतोहि तत्र समवायसम्बन्धः नास्ति.
न, किन्तु घटः नास्ति इति किमर्थं तत्र नास्ति इति वदति? किम तत्र प्रतियोगिता अस्ति चेत्, प्रतियोगिता इति विषयः तत्र कदा भवति? प्रतियोगिता इति कदा वदामः?
प्रतियोगिता तस् घटाभावस्य विषय सम्बन्धे आगच्छति
अभावः यत्र अभावः अभावस्य विरोधः विरोधः एव प्रतियोगिता तत्र अभावस्य अभावे अनियोगिता अस्ति तत्र विरोधभावः यत् अस्ति तत्र घटे घटाभावं प्रति तत्र विरोधभावः यत् अस्ति घटे सः प्रतियोगिता इति वदामः खलु अतः घटः नास्ति इति सर्वत्र अस्ति अस्तु घटा अस्तु समीचीनं हा इदानीं तत्र भूतले समवायिन घटो नास्ति
नास्ति
हा तत् सत्यं वा
सत्यं
हा यतोहि तत्र भूतले तत्र घटः अस्ति चेत् घटः भूतले अस्ति चेत् भूतले अस्ति चेत् तत्र केन सम्बन्धेन भवति
संयोगसम्बन्धेन एव यतोहि तत्र भूतलमपि घटः द्रव्यौ अतः संयोग द्रव्ययोः मध्ये संयोगसम्बन्धः
संयोगसम्बन्धः केवलं द्रव्ययोः मध्ये एव भवति अस्तु अतः तत्र संयोगसम्बन्धेन घटः भूतले अस्ति किन्तु अत्र किं कृतमस्ति भूतले समवायेन
सम्बन्धेन
घटः नास्ति इति लिखितमस्ति अस्तु अग्रे
अग्रे कपाले संयोगेन घटो नास्ति
नाम
तत्र यतोहि तत्र कपाले घटः समवायसम्बन्धेन अस्ति अतः किमपि अन्यत् सम्बन्धेन नास्ति संयोगसम्बन्धेन नास्ति
समीचीनम् अस्तु अग्रे
काले विषयतासम्बन्धेन घटो नास्ति हा तत्र काले दैशिकसम्बन्धेन कालिकसम्बन्धेन वर्तते इति कृत्वा विषयतासम्बन्धेन घटो नास्ति अत्रापि सम्बन्धं न भवितुम् अर्हति अतः विषयतासम्बन्धेन अपि नास्ति
वाक्यं सत्यं तत्र वाक्यत्रयमपि सत्यम् अत्र वाक्येन किं वर्णितमस्ति तत्र अभावाः वर्णिताः खलु
वर्णितानि तत्र घटः नास्ति इति विषयः केन सम्बन्धेन नास्ति इति
तत्र वर्णनमस्ति तत्र घटः नास्ति इति अस्ति तत्र घटाभावः इति वर्णनमस्ति किन्तु तत्र यदि पश्यामः तत्र घटः अस्ति भूतले अस्ति भवत्याः पुरतः एव अस्ति घटः अस्तु किन्तु यदि भवती वदति भूतले समवायेन घटो नास्ति इति किन्तु घटः अत्र अस्ति
अस्ति एव समवायेन नास्ति किन्तु
घटाभावः कुत्र अस्ति घटाभावः इति कथं वदामः घटः अस्ति अत्र अतः तत्र किञ्चित् मनसि क्लेशः भवति तत्र घटः पुरतः अस्ति किन्तु भूतले समवायेन घटः नास्ति इति अत्र
तत्र सम्बन्धस्य विषयः
कस्य अभावः तर्हि घटस्य अभावः वा
सम्बन्धस्य अभावः
किन्तु तद् न उक्तं तत्र सम्बन्धः नास्ति इति न उक्तं घटः नास्ति इति एव उक्तं खलु
न किन्तु तत्र समवायेन नास्ति इति तत्र संयोगेन नास्ति इति तु न उक्तं
हा किन्तु किं नास्ति घटः एव नास्ति खलु अतः तत्र घटस्य अभावः एव उक्तम् उक्तः अत्र अतः एव तत्र तत्र पश्यतु तत्र अभावान् यदि चिन्तयामः तदा तस्य अभावस्य प्रतियोगिताः कुत्र सन्ति कस्य अभावः इति कथं जानीमः कुत्र प्रतियोगिता अस्ति इति दृष्ट्वा वक्तुं शक्नुमः खलु तत्र पटाभावः अस्ति चेत् प्रतियोगिता पटे अस्ति खलु
सत्यम्
हा घटाभावः इत्युक्ते तस्य तत्र तस्य अनुरूपित
तस्य विरोधः
घटे
अस्ति
अत्र प्रतियोगिताः तिस्रः प्रतियोगिताः अपि घटे एव वर्तन्ते यतोहि घटः नास्ति घटः नास्ति घटः नास्ति इति एव अभावः अत्र सन्ति अतः तत्र तासां परस्परं भेदज्ञापनाय नाम प्रतियोगिताः तिस्रः घटे एव वर्तन्ते पूर्वम् आदेयताः आसन् इदानीं प्रतियोगिताः सन्ति तिस्रः प्रतियोगिताः सन्ति घटे तासां भेदं कथं साधयामः इति प्रश्नः तत्रापि घटत्वम् इति अवच्छेदकम् अस्ति, सर्वत्र घटत्वम् अस्ति, किन्तु घटत्वेन भेदः न सिद्ध्यति, अतः तत्र सम्बन्धस्य उपयोगः अत्रापि कर्तुं शक्नुमः इति वार्ता. अतः तत्र एतत् वाक्यं, तत्र एतद् वाक्यं यदस्ति तस्मिन् विषये किञ्चित् चिन्तयतु. तत्र भूतले समवायेन घटो नास्ति इति, तस्मिन् तत्र तस्य उपरि, तत्र वाक्यस्य उपरि तत्र करपत्रमपि वर्तते. तत्र प्रायशः तत्र एतद् भागं पठित्वा तदनन्तरं तत्र करपत्रस्य लघुकरपत्रं स्वरूपमहोदयस्य तदपि पठामः. तत्र भूतले समवायेन घटो नास्ति इति. अस्तु तर्हि तत्र समीचीनमस्ति इति मन्ये. तत्र वयं तत्र केवलं यद् गतवर्गे कृतवन्तः तदेव पुनः पठितवन्तः, किन्तु ध्वनिमुद्रणम् इदानीम् अस्ति, अतः समीचीनम् अस्तु. एकनिमिषः तत्र ध्वनिमुद्रणं स्थगयामि.